इन्द्रदृष्ट्यमगमन्तापदिद्भुज इहस्ततः सुतपापोऽधिनो वृधे देवेभिर्नः सविता प्रापदश्रुतमा सर्वतादिमदिदिम् वृणीमहे भराजसु भरतभागभृत्विजम् प्रभाजपे शुचिपे क्रन्ददिष्टये गौरस्य जः पजसः पेतिमा नश आ सर्वतादिमदिदिम् वृणीमहे आनो देवः सविता सा विषद्वजरजोजते यजमानाय सुन्वते यथा देवान् प्रतिभोषेमपाकपदा सर्वतादिमदिदम् वृणीमहे इन्द्र अस्मे सुमना अस्तु विश्वहाराजा सोमः सुमितः स्याध्येतुनः यथा यथा मित्रधितानि सन्दधुरा सर्वतादिमदिदम् वृणीमहे इन्द्र उक्थेन शवसा परुर्दधे बृहस्पते प्रदरीता स्याजुषः यज्ञामनः प्रपदर्नः पिता हि कमा सर्वतादिमदिदम् वृणीमहे इन्द्रस्य नु सुकृतम् दैव्यम् सहोऽग्निर्गृहे जरिता मेधिरः कविः यज्ञश्च भोद्विदधे चारुरन्तम आ सर्वतादिमदिदम् वृणीमहे न वो गुहा चक्रम भोरि दुष्कृतम् नाविष्ट्यम् वसवो देवहेळनम् माकिर्नो देवा अनृतस्य वर्पस आ सर्वतादिमदिदम् वृणीमहे अपामेवाम् सविता सा विषण्या अग्बरेज इदपसे धन्वद्रजः ग्राभाजत्र मधुषदुच्यते बृहदा सर्वतादिमदिदम् वृणीमहे ऊर्ध्वग्रावा वसवोऽस्तु सोदरि विश्वाद्वेषांसि सनुतर्युजोत स नो देवः सविता पाजुरेड्य आ सर्वतादिमदिदम् वृणीमहे ऊर्जम् गावोजवसे पीवो अत्तनरतस्य जाः सदने कोशे अङ्घ्वे तनोरेव तन्वो अस्तु भेषजमा सर्वतादिमदिदम् वृणीमहे क्रतुप्रावाजरिता शश्वतामव इन्द्र इद्भद्रा प्रमदः सुदावताम् पूर्णमो धर्तिव्ययस्य सिक्तज आ सर्वतादिमदिदम् वृणीमहे चित्रस्ते भानुः क्रतुप्रा अभिष्टः सन्ध्यः स्पृथो जरणिप्रा अधृष्टाः रजिष्ठया रज्या पश्व आगोस्तोदोर्षदि पर्यग्रन्दुवस्युः